विद्वाभिस्तुयोषाभिः सेव्यः पतिधिया हरिः आज्ञायां पितृपुत्रादेर्वृत्यं स्वातन्त्र्यतो न तु